गुरुब्रह्मा गुरुविष्णु गुरुदेवो महेश्वरः गुरु साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र आत्मनः लक्षणम् अपि मनसः लक्षणं तत्र आत्मनः लक्षणं वयं कृतवन्तः गतवर्गे अपि तत्र जीवात्मा तत्र जीवात्मानः अनेकाः सन्ति अपि तत्र जीवात्मनस्य तत्र नित्यत्वं विभुत्वम् एतत् सर्वं वयं पठितवन्तः ज्ञातवन्तः इदानीं तत्र मनसः विषये तत्र सुखादि उपलब्धिसाधनत्वम् अपि इन्द्रियत्वं तत्र मनसः लक्षणमिति भवति तत्र सुखादि नाम तत्र विशिष्टगुणाः सन्ति ये सन्ति जीवात्मनि तस्य प्रत्यक्षज्ञानं नाम तत्र सुखस्य प्रत्यक्षज्ञानं दुःखस्य प्रत्यक्षज्ञानं एतद् अपि तत्र सुखस्य सुखमिति गुणः अस्ति आत्मनः विशिष्टगुणः अस्ति गुणः अस्ति इति कृत्वा तत्र आश्रयः भवेत् आश्रयः द्रव्यम् इति भवेत् अपि तत्र सुखस्य आश्रयः तत्र आत्मा जीवात्मा इति भवति तत्र जीवात्मनः प्रत्यक्षज्ञानमपि तत्र भवति तत्र प्रत्यक्षज्ञानम् इति यदि वदामः तत्र इन्द्रियेण लब्धम् इन्द्रियेण प्राप्तं ज्ञानम् इति भवति तत्र इन्द्रियेण केन इन्द्रियेण प्राप्तं ज्ञानम् इत्युक्ते तत्र उत्तरं भवति तत्र मनसा प्राप्तं प्रत्यक्षज्ञानं तर्हि तत्र वयं गतवर्गे दृष्टवन्तः तत्र अहं सुखी तत्र सुखस्य ज्ञानं यदि भवति तदा अस्माकं मनसि अहं सुखी इति भवति अहं सुखी इति यदा भवति तत्र सुखस्य ज्ञानं प्रथमज्ञानं तदनन्तरम् ओ अस्तु मयि सुखम् अस्ति इति तत्र अहं सुखी इति द्वितीयज्ञानं भवति तत्र तर्हि तत्र सुखस्य ज्ञानम् अपि सुखम् इति तस्य ज्ञानम् अति अपि मयि सुखम् अस्ति इति अपि तत्र ज्ञानद्वयस्य अपि तत्र केवलं मनसा एव प्रत्यक्षं भवति प्रत्यक्षं नाम उपलब्धिः तत्र उपलब्धिः इत्युक्ते प्रत्यक्षं प्रत्ययः प्रतीतिः इति तत्र अनेकानि पदानि समानार्थकपदानि सन्ति इति वयं गत वर्गे पठितवन्तः तत्र स्वरूपमहोदयस्य करपत्रे अतः एतत् तत्र सुखानां तत्र प्रत्यक्षज्ञानं भवति मनसा अपि तत्र सुखस्य आश्रयः आत्मा यः अस्ति तस्य जीवात्मा यः अस्ति तस्य अपि प्रत्यक्षज्ञानं मनसा भवति तत्र मनः इति इन्द्रियं मनसा इन्द्रियेण तत्र प्रत्यक्षज्ञानं भवति अतः तत्र सुखादि उपलब्धिसाधनं मनः इति भवति तत्र लक्षणवाक्ये सुखादि उपलब्धिसाधनम् इन्द्रियम् इति धलद्वयम् अस्ति तत्र तत्र धलद्वयं यत्र लक्षणवाक्ये अस्ति तत्र धलसार्थक्यं कर्तव्यं भवति नाम एकेन दलेन पर्याप्तं भवति न वा इति परीक्षा करणीया अस्माभिः तर्हि तत्र प्रथमतया तस्मिन् तादृशविषयः प्रथमतया आगच्छति तदनन्तरं तत्र द्वितीयदलं किम् अस्ति इति एतत् सर्वम् अद्य पश्यामः तर्हि तत्र करपत्रे वयं कुत्र स्मः इति एकवारम् एकनिमिषः हा प्रायश तत्र तच्च प्रत्यात्मनियतत्वम् इति सः परिच्छेदः अस्माभिः पठितः इति मन्ये अतः तत्र अनन्तत्वम् अस्तु अस्तु तत्र एवं परमाणुरूपम् इति अस्माभिः पठनीयमस्ति तर्हि तत्र कः अद्य आदौ पठति इति एकनिमिषः तत्र एवं परमाणुरूपम् इति अस्ति तर्हि तत्र योगेन्द्रमहोदय भवानेव आरम्भं करोति वा महोदय
आं करोमि
एवं परमाणुरूपम्
एवं परमाणुरूपं कीदृशं परिमाणं वर्तते मनसः अणुस्वरूपं मनः अणुपरिमाणं वर्तते तत्र अणुः प्रत्यक्षं न भवति अणुः न दृश्यते पार्थिवाः जलीयाः तेजसाः वायवीयाः च परमाणवः भवन्ति परमाणुः इति एकम् आरम्भकद्रव्यम् उभाभ्यां परमाणुभ्यां संयोगेन एकं द्वयणुकम् उत्पद्यते तदा क्रमेण त्रिभिः द्वयणुकैः त्रयणुकं चतुर्भिः त्रयणुकैः चतुर्णुकम् इत्यादिकं परमाणुः अन्तिम अवयवः तस्य स्वरूपं किम्
इति तावत् पर्यन्तं वदतु महोदय.
मनसः परिमाणं किं वर्तते इति तस्य निरूपणम् अस्ति अत्र. मनसः अणुस्वरूपम् अस्ति परमाणुस्वरूपम् अस्ति
तत्र परिमाणं तत्र परिमाणस्य त्रैविध्यं वर्तते. किञ्चित् वदति वा परिमाणस्य त्रैविध्यम् इत्युक्ते किम् इति?
परिमाणत्रैविधम् अस्ति
अतिलघुपरिमाणम् अपि अतिबृहत् परिमाणं किमस्ति
महत् परं परिमाणम् अस्ति बृहत् परिमाणं लघुपरिमाणं परमाणुपरिमाणम् अस्ति अपि तृतीय मध्यमपरिमाणम् अस्ति.
समीचीनं महोदय. हा तर्हि तत्र इदानीं तत्र मध्यमपरिमाणं तत्र मनसः भवति न वा भवति?
मनसः मध्यं परिमाणं किमर्थं न भवति इति तु वक्तुं
अस्तु. चिन्ता मास्तु, चिन्ता मास्तु इदानीम्. अस्तु अस्तु, अग्रे अन्य कोऽपि वदेत्. समीचीनं. तर्हि तत्र इदानीं तत्र तत्र परमाणुरूपम् इति उक्तं, नाम तस्य परिमाणं परमाणुपरिमाणम् अस्ति इति. समीचीनं महोदय. हा अस्तु, इदानीम् अग्रे. हा कीदृशं परिमाणं वर्तते मनसः? हा अग्रे.
अणुः प्रत्यक्षं न भवति, अणुः न दृश्यते इति मनः मनः अपि न दृश्यते. पार्थिवाः जलीयाः तेजसः वायवीयाः च परमाणवः तु भवन्ति, परन्तु तेषां परमाणवः साक्षात् द्रष्टुं न शक्नुमः इदानीम्.
अतः तत्र अतः तत्र अस्माकं तत्र परमाणवः भवन्ति इति केवलं तत्र अनुमानेन एव तत्र तस्य ज्ञानं भवति, प्रत्यक्षज्ञानं नास्ति खलु, यतोहि तत्र तेषां परिमाणम् अतिलघु अस्ति खलु.
अतिलघु प्रत्यक्षं न भवति, अनुमानेन वक्तुं शक्नुमः.
अनुमानेन एव वक्तुं शक्नुमः. समीचीनं. हा अपि तत्र परमाणवः तत्र पार्थिवपरमाणवः, जलीयपरमाणवः, तैजसः परमाणवः, वायवीयाः परमाणवः च सन्ति. हा अग्रे.
तेषामपि परमाणुरूपं सन्ति.
हा अपि परमाणवः कीदृशपदार्थः, नित्यः वा अनित्यः वा?
परमाणु नित्यपदार्थः.
हा नित्यपदार्थः, नित्यपदार्थः. समीचीनं. हा इदानीम् अग्रे. परमाणु
परमाणु अपि एकम् आरम्भकद्रव्यम् अस्ति. उभाभ्याम् तस्य किमपि बृहत् रूपं प्राप्नोति, परन्तु तस्य आरम्भः परमाणुतः भवति इति वक्तुम् इच्छति. एकपरमाणु योगः द्वितीयपरमाणु इति एव रीत्या सागरः भवति इति एव रीत्या.
समीचीनं महोदय, समीचीनं. नाम तत्र अस्माकं तत्र वयं पूर्वं पठितवन्तः, तत्र परम्परा अस्ति, नाम यः कोऽपि तत्र घटः घटस्य निर्माणं तत्र परमाणवः सन्ति तेभ्यः आरभ्य तत्र घटस्य निर्माणं भवति परम्परया इति अस्ति. अतः तत्र अन्ये तत्र परमाणवः परमाणवान् विहा तत्र परमा गुरून् हा परमाणून् विहाय
बहवः परमाणः मिलित्वा घटः भवति
हा अपि परमाणु तत्र समीचीनं महोदय अपि तत्र यत्र अनेके परमाणवः सन्ति तत्र अवयवाः तत्र परमाणवः एव अवयवाः अन्तिम अवयवाः सन्ति परमाणवः नाम गतस्य अवयवः कपालः इति वक्तुं शक्नुमः किन्तु कपालस्य अपि अवयवाः सन्ति तस्य नूतनपदार्थस्य अपि अवयवाः सन्ति लघु अवयवाः इति कृत्वा तत्र यदि अन्तिम तत्र चरम तत्र
चरम अन्तिमतमं यः अवयवः अस्ति सः परमाणुः अस्ति तस्य अवयवः नास्ति
हा तस्य अवयवः न सन्ति समीचीनं महोदय अतः एव तत्र परमाणवः तत्र प्रारम्भिकद्रव्यम् आरम्भकद्रव्यम् इति समीचीनम् अस्तु अग्रे
उभाभ्यां परमाणुभ्यां योगेन एकं द्वयणुकम् उत्पद्यते इत्युक्ते एकपरमाणुः अस्ति तेन सह द्वितीयपरमाणुः यदा संयोगः भवति तदा द्वय अणुकम् इति उत्पद्यते
हा उत्तमं हा अग्रे
तदा क्रमेण इति एव रीत्या यदा सा प्रक्रिया अग्रे भवति तदा किं भवति इति वक्तुम् इच्छति त्रिभिः द्वयकणुकैः अणुकैः त्रिभिः इत्युक्ते एकयुगल अस्ति द्वितीययुगल अस्ति तृतीययुगल अस्ति त्रययुगलाः तं मिलित्वा त्रयणुकं भवति
हा समीचीनं महोदय तर्हि एकनिमिषं महोदय तर्हि त्रयणुके कति परिमाणवः सन्ति
त्रयणुके षष्ठ
परमाणवः सन्ति षट् परमाणवः सन्ति समीचीनं महोदय अस्तु अग्रे
इति एव चतुर्भिः त्रयणुकैः चतुर्णुकम् इत्यादिकम् अतः चतुर्भिः त्रयणुकैः इति रुते चतुर्भिः तत्र चत्वारः युगलः सन्ति परन्तु युगलः न सन्ति तत्र तु त्रयणुकम् अस्ति एकगणे त्रयः अस्ति द्वितीयगणे त्रयः अस्ति तृतीयगणे त्रयः अस्ति चतुर्थगणे त्रयः अस्ति एवमेव एषः चतुर्गणः मिलित्वा चतुरणुकं भवति इति अहं चिन्तयामि
समीचीनं महोदय हा इति एव समीचीनं हा अग्रे
परमाणुः अन्तिमः अवयवः तस्य स्वरूपं किम् अतः परमाणुः अन्तिम अवयवः अस्ति सः द्रष्टुं स्वरूपं किम् इति रीत्या तत् अधोभागे श्लोकं लिखितमस्ति
यदा सूर्य महोदय तावत्पर्यन्तम् एतावत् समीचीनं हा धन्यवादः महोदय समीचीनमस्ति हा तस्य स्वरूपं कीदृशमिति अग्रे भवति इति एकनिमिषः समीचीनं महोदय धन्यवादः हा अस्तु इदानीं तत्र हा अग्रे समीचीनं महोदय नरसिंहमहोदय नमस्कारः अपि अन्य कोऽपि आगत शुभदा भगिनी नमस्कारः
नमस्कारः
नमस्कारः चन्द्रमती भगिनी नमस्कारः हा जयलक्ष्मी भगिनी नमस्कारः
नमस्ते महोदय
नमस्कारः तत्र सर्वेषां पार्श्वे तत्र करपत्रं भवेत् तत्र आत्मा मनः च अद्य प्रदर्शयितुं न शक्नोमि इति कृत्वा तत्र करपत्रं समीपे भवेत् अस्तु
समीचीनम्
ईमेल् मध्ये अस्ति भगिनि ईमेल् मध्ये अस्ति भगिनि हा तत्र आत्मा मनः च इति हा अद्यतनवर्गस्य स्मारणपत्रे अस्ति भगिनि हा अस्तु इदानीम् अग्रे तत्र अस्तु तत्र धनश्री भगिनी तत्र स्वशब्दैः तत्र पुनः तत्र यत् अवगतम् इति एकवारं वदति वा भगिनि योगेन्द्रमहोदयेन यत् पठितम् आं
महोदय अत्र परमाणुरूप एवं परमाणुरूपं नाम अत्र परिमाणस्य विवरणमस्ति अणुस्वरूपं मनः नाम मनस्य मनसः यः परिमाणमस्ति तद् अणुस्वरूपमस्ति अणुपरिमाणं तत्र वर्तते नाम किं तत्र लघुतमं यः परिमाणमस्ति यस्य प्रत्यक्षं न भवति यः न दृश्यते तदेव मनसः परिमाणम् अस्ति. परमाणवाः सर्वेषां द्रव्याणां भिन्नाः सन्ति, नाम पार्थिवाः सन्ति, जलीयाः सन्ति, सर्वेषां परमाणवाः सन्ति. नाम सः परमाणुः आरम्भकः द्रव्यं नाम ततः सर्वेषां द्रव्याणाम् उत्पत्तिः भवति.
समीचीनम्.
उभाभ्यां परमाणुभ्यां नाम द्वौ परमाणौ मिलित्वा एकं जणुकं उत्पद्यते. अनन्तरं क्रमेण त्रिभिः जणुकैः जणुकं नाम द्वौ युगलौ त्रीणि जणुकस्य त्रीणि जणुकं मिलित्वा एकं त्रेणुकं भवति, नाम षट्
परमाणवः त्रयाणां द्वै अणुकाणां मेलनेन
एकं त्रेणुकं भवति. तत्र एकस्मिन् चणुके षट् परमाणवः सन्ति.
षट् परमाणवः सन्ति.
एतावत् एकः षट् परमाणुयुक्तत्रेणुकं पुनः तादृशः चत्वारः त्रेणुकः यदा एकत्रः भवन्ति तत्र चतुरणुकं भवति.
नाम
तत्र चतुर्विंशति परमाणवः चतुरणुके सन्ति. पुनः परमाणु इति वयम् अन्तिमः अवयवः इति मन्यामहे, नाम तत्र पुनः तस्य भेदः वयं न कर्तुं शक्नुमः.
तत्र
अतः निरवयवी अस्ति सः.
समीचीनं. नाम तत्र अन्तिम अवयवः इत्युक्ते तत्र परमाणवः अवयवी अवयविनः न सन्ति खलु. नाम तेषाम् अवयवाः न सन्ति इत्युक्ते तत्र परमाणु अवयवी नास्ति, अवयवाः तस्याः नास् न सन्ति इति. समीचीनं भगिनि. अस्तु, धन्यवादः. उत्तममस्ति. अस्तु, एकनिमिषः अन्य कोऽपि इदानीं वदेत्. धन्यवादः भगिनि. अस्तु, अग्रे तत्र विमला भगिनी अग्रे पठति वा?
आं महोदय. सूर्यजाल इति तत् श्लोकः किल?
सत्यं भगिनि, श्लोकं श्लोकः.
सूर्यजालमरीचिस्थं यत् सूक्ष्मं दृश्यते रजः, तस्य षष्ठतमो भागः परमाणुस्य उच्यते. सूर्यजालमरीचिस्थं यत् सूक्ष्मं दृश्यते रजः, तस्य षष्ठतमः भागः परमाणुः सः उच्यते इति
श्लोकम्. अग्रे अपि तत्र अधोभागे अपि किञ्चित्
पठामि महोदय. मरीचिः नाम किरणः, रजस् इत्युक्तौ चूर्णं, धूलिः इति. रन्ध्रं वर्तते गृहस्य, रन्ध्रात् सूर्यकिरणाः आगच्छन्ति गृहस्य अन्तः. तेषु सूर्यकिरणेषु सूक्ष्मरजांसि दृश्यन्ते, तानि सूक्ष्मरजांसि त्रणुकम् इत्युच्यते. त्रणुकं दृश्यते लोके, यत् अस्माभिः दृश्यते तस्य सर्वलघुभागः त्रणुकम्. तादृशत्रणुकस्य षड्भागाः क्रियन्ते चेत् तत्र प्रत्येकं भागः परमाणुः, स च परमाणुः न दृश्यते. तादृशसूक्ष्मस्वरूपं मनः अत्यन्तं लघु, परमाणुरूपं नाम परमाणुवत् लघु. एतदेव श्लोके अपि उक्तम्. उदाहरणम् एतावत् अस्ति, त्रेणुके षट् अणवः सन्ति, परमाणवः सन्ति. त्रेणुकं चक्षुषा दृश्यते, यथा मरीचिः नाम सूर्यस्य किरणः, रजस् इत्युक्तौ चूर्णं या धूलिः. गृहस्य रन्ध्रात् यदा सूर्यकर्णः आपतति गृहे, तदा एषु सूर्यकर्णेषु सूक्ष्मरजांसि अस्माभिः दृश्यन्ते
खलु. तत्र तत्र वातायनेन तत्र यदा तत्र सूर्यकिरणाः आगच्छन्ति गृहे, तत्र वयं पश्यामः खलु तत्र धूलिः धूलि धूलेः तत्र साक्षात्कारः भवति
बहवः दृश्यन्ते सूक्ष्मरजांसि दृश्यन्ते तानि सूक्ष्मरजांसि त्र्यणुकम् इत्युच्यते त्र्यणुकम् इत्युक्तौ त्र्यणुकं दृश्यते लोके यत् अस्माभिः दृश्यते तस्य सर्वस्य लघुभागः त्र्यणुकं द्वणुकं परमाणु न दृश्यन्ते तादृशत्रेणुकस्य षड्भागाः क्रियन्ते चेत् तत्र प्रत्येकं भागः परमाणुः अस्ति तत् परमाणुः न दृश्यते इति अत्र उक्तं तादृशसूक्ष्मस्वरूपं मनः इत्युक्ते मनस्य परिमाणं मनसः परिमाणं परमाणुपरिमाणमस्ति
अत्यन्तलघु
अस्ति परमाणुरूपं नाम परमाणुवत् लघु इति उक्तम्
इति उक्तं समीचीनं भगिनि अतः तत्र मनसः परिमाणं तत्र परमाणुपरिमाणम् इति अस्ति तत्र परमाणुपरिमाणम् इत्युक्ते तत्र उदाहरणम् इति दत्तमस्ति समीचीनमस्ति पुनः तत्र एतदेव अन्य कोऽपि तत्र वदेत् तत्र किम् अस्ति इति तर्हि तत्र शोभा भगिनी स्वशब्दैः वदति वा तत्र पुनः
अस्मिन् श्लोके दत्तं यत् तत्र मरीचिः इत्युक्ते किरणम् इति स्वीकृत्य अपि च रजस् इत्युक्ते चूर्णः अथवा धूलिः इति स्वीकृत्य यदा सूर्यकिरणाः गृहे आगच्छन्ति वातायनेन अथवा कोऽपि रन्ध्रेण केनापि रन्ध्रेण तदा वयं धूलिं पश्यामः नो चेत् न दृश्यते एव किन्तु यदा सूर्यकिरणाः गृहस्य अन्तः आगच्छन्ति तदा एव पश्यामः तेषां परिमाणम् अस्ति त्रिणुकम् इति त्रिणुकम् इत्युक्ते पूर्वं निरूपितवन्तः तत्र षट् परमाणवः सन्ति इति अपि च तर्हि लोके अस्माभिः यत्किमपि वयं पश्यामः अस्माभिः दृश्यते तस्य सर्वलघुभागः इत्युक्ते सर्व लघुभागः यत् तस्मात् लघुः भवितुं नार्हति दृश्यते चेत् तादृशं भवेत् त्रिणुकं भवेत् अपि च तत्र लघुभागः त्रिणुकम् इति अस्ति इत्युक्ते तस्मिन् परिमाणे द्रष्टुं शक्नुमः तादृश त्रिणुक् नास्ति वा महोदय क्षम्यतां
समीचीनं 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 भगिनि नाम तत्र दृश्यमानाः पदार्थाः ये सन्ति तेषु
त्रिणुकपरिमाणे सन्ति
न तेषु लघु अतिलघु अस्ति त्रयणुकपरिमाण पदार्थाः
इत्युक्ते तत्र तेषां तस्मात् लघुः भवन्ति चेत् दृश्यमाणाः न सन्ति इति
नाम तत्र
अतः तत्र तादृश त्रिणुकस्य षड् भागाः क्रियन्ते चेत् इदानीं तत्र षट् परमाणवः सन्ति तत्र अतः तत्र षड् भागाः कुर्मः चेत् एकः परमाणु भवति तत्र षड् भागेषु षट् परमाणवः भवन्ति तत्र प्रत्येकं भागः परमाणुः इति भवति स च परमाणुः न दृश्यते इति अपि निरूपितवन्तः तत्र यतोहि तत्र त्रिणुकं नास्ति इदानीं यत् आवश्यकम् अस्ति यत् किमपि द्रष्टव्यं भवति चेत् इदानीं परमाणु प्रत्यक्षं भवति प्रत्यक्षं
योग्यता तत्र परमाणौ नास्ति किन्तु त्रयणुके
तदेव अत्यन्तलघुः तस्मात् उपरि किमपि अस्ति चेदपि द्रष्टुं शक्नुमः किन्तु तस्मात् लघुः अस्ति चेत् न दृश्यते अतः तत्र इदानीं एकः परमाणुः स च परमाणुः न दृश्यते तादृशसूक्ष्मस्वरूपं मनः इत्युक्ते मनः स्वरूपम् एकपरमाणुपरिमाणम् अस्ति इति हा अतः अत्यन्तलघुः अतः परमाणुरूपं नाम परमाणुवत् लघु इति अतः तत्र मनसः प्रत्यक्षं न भवति
हा मनसः प्रत्यक्षं न भवति मनः अस्ति इति केवलं तत्र
अनुमानेन
अनुमानेन एव कर्तुं शक्नुमः यतोहि तत्र मनसः परिमाणम् अतिलघु नाम परमाणुपरिमाणम् अस्ति अपि तत्र वयम् उक्तवन्तः तत्र नाम तत्र मनः तत्र नित्यपदार्थः वा अनित्यपदार्थः वा
नित्यपदार्थः नित्यपदार्थः
अतः तत्र तर्हि तस्य मध्यमपरिमाणं न भवितुमर्हति
न भवितुमर्हति
अतः तत्र
तस्य नाशः अपि न भवति इति
न भवति अतः तत्र नित्यपदार्थः
नित्यपदार्थः
नास्ति नाशः अवयवाः न सन्ति
अपि न सन्ति
इति कृत्वा तत्र तस्य परिमाणं तत्र मध्यमपरिमाणं न भवितुम् अर्हति अतः तत्र परमाणुपरिमाणम् इति एव स्वीकरणीयम् अपि पूर्वं वयं पठितवन्तः तत्र तस्य विभु तत्र परममहत्परिमाणमपि न भवितुम् अर्हति यतोहि तत्र केवलं तत्र ज्ञानं प्रत्येकशरीरे एव भवति मनसः अतः तत्र तस्य केवलं तत्र अतः तत्र परममहत्परिमाणमपि न भवितुम् अर्हति मध्यमपरिमाणमपि न भवितुम् अर्हति तर्हि तत्र केवलं परमाणुपरिमाणमेव तस्य
भवितुं
भवति इति अस्ति हा अपि चत्र तत्र मनः नित्यम् इति कृत्वा तत्र मृत्युनन्तरमपि तत्र जीवात्मा अस्ति मनः अपि अस्ति
अस्ति
तदनन्तरं तत्र हा तर्हि तत्र शरीरं नास्ति चेदपि तत्र जीवात्मा अपि मनः तत्र नित्यम् इति तत्र न्यायशास्त्रे इति तेषां चिन्तनम् अस्ति तत्र अन्येषु दर्शनेषु चिन्तनं भिन्नम् अस्ति किन्तु न्यायशास्त्रे आत्मापि जीवात्मापि नित्यं मनः अपि नित्यम् अपि मनः भिन्नम् अस्ति जीवात्मा भिन्नम् अस्ति मनः इन्द्रियमस्ति जीवात्मा तु आत्मा इति तत्र द्रव्यम् अस्ति तत्र आत्मद्रव्यं भिन्नम् अस्ति मनः इति द्रव्यं भिन्नम् अस्ति हा अपि अत्र दृश्य अवगन्तुं शक्नुमः यतोहि तत्र आत्मा विभुद्रव्यम् अस्ति किन्तु मनः परमाणुवत् अस्ति अतः तत्र तस्य परिमाणं भिन्नम् अस्ति इति कृत्वा मनः अपि भिन्नम् अपि आत्मा अपि भिन्नः इति अस्ति समीचीनं हा अस्तु एतावत् समीचीनं भगिनि धन्यवादः एतावत् कोऽपि प्रश्नः
क्षम्यतां महोदय
समीचीनं
वा नमस्ते महोदय श्रूयते किं इदानीं जीवात्मा इति उक्तं खलु इदानीं परमात्मा इति स्वीकरोति चेदपि मनः परमात्मनोः भेदः समानमेव भवति खलु अथवा तत्र अन्य कोऽपि भेदः च भवति वा
पुनः पुनः भगिनि प्रश्नः न
इदानीं मनः जीवात्मनः कथं विद्यते इति उक्तं तदेव भेदः एव परमात्मनः अपि समानं भवति वा अन्य कोऽपि भेदः
समीचीनं यतो तदेव यतोहि परमात्मा अपि तत्र विभुः अस्ति सर्वज्ञः अस्ति हा विभुः अस्ति तत्र परमात्मा प्रथमतया तत्र परमात्मनः लक्षणं तत्र सारल्येन कर्तुं शक्नुमः इति कृत्वा तस्य प्रथमतः परमात्मनः लक्षणमेव उक्तं नाम तत्र विभुः अस्ति नित्यम् अस्ति अपि तत्र एकमेव अस्ति इति एकः एव अस्ति इति प्रथम आरम्भे तत्र उक्तम् अस्ति तदनन्तरमेव तत्र जीवात्मानः इति तस्य लक्षणं तदनन्तरं वयं पठितवन्तः अतः तत्र सः एव भेदः तत्र परमात्मा अपि विभुद्रव्यं मनः इति तु तत्र विभुद्रव्यम् अपि तत्र नाम तस्य परममहत्परिमाणं किन्तु मनः यद् अस्ति तद्द्रव्यं तस्य परिमाणं तु तत्र अतिलघु अस्ति समीचीनं वा भगिनि
समीचीनं महोदय धन्यवादः
अस्तु अस्तु धन्यवादः अस्तु इदानीम् अग्रे सरामः तर्हि तत्र इदानीं नित्यं च इति अस्ति हा तर्हि तत्र अशोकमहोदय अग्रे पठति वा
अस्तु महोदय, नित्यञ्च न उत्पद्यते न वा नश्यति, सर्वदा वर्तते, तर्हि मनः नित्यं परमाणुस्वरूपं च, तादृशम् इन्द्रियं ज्ञानादीनां कारणं सुखादीनाम् उपलब्धेः प्रत्यक्षसाधनम्। नित्यञ्च न उत् नित्यमपि इति उक्तं, नित्यं नित्यस्य अर्थः लिखितः, न उत्पद्यते न वा नश्यति, यदि तस्य जन्म न अस्ति तस्य मृत्युपि न अस्ति तर्हि नाशनम् अस्ति तर्हि नित्यम् इति सर्वदा वर्तते।
समीचीनं, हा समीचीनं, हा
तर्हि मनः नित्यं परमाणुस्वरूपं च, मनः नित्यमिति उक्तं परमाणुस्वरूपमपि अस्ति, तादृशम् इन्द्रियं ज्ञानादीनां कारणं, ज्ञानस्य कारणम् अस्ति आदीनाम्, अतः सुख दुःख प्रयत्न द्वेष इच्छा तस्य कारणम् अस्ति,
अपि इन्द्रियमपि अस्ति,
तस्य कारणं नास्ति खलु, तस्य प्रत्यक्षमेव मनसा भवति।
अस्तु, नाम तत्र अत्र न्यायशास्त्रे साधनम् इत्युक्ते नाम तत्र वयं साधारणतया तत्र लोके यत् साधनम् इति वदामः, नाम तत्र अहं तत्र लोकयानेन तत्र कुत्रापि गच्छामि, तत्र विद्यालयं गच्छामि इति चिन्तयामः, तत्र लोकयानम् इति माध्यमं भवति, नाम तत्र सः साक्षात् कारणं न भवति खलु, तत्र पाठशालां गच्छामि किमर्थं किं कारणम् इत्युक्ते तत्र लोकयानम् इति न वदामः लो, किन्तु न्यायशास्त्रे तत्र कारणम् इति वदामः, तत्र माध्यमम् इति यदस्ति साधनम् इति तत्र अस्ति, तत् वयं न्यायशास्त्रे कारणं नाम तत्र गमनम् अभवत्, तत्र विद्यालयं विद्यालयस्य गमनम् अभवत्, तत्र विद्यालयस्य गमनं तत्र यदि तत्र लोकयानं नासीत् चेत् न अभवत्, नाम तत्र कारणस्य एकमेव कारणम् इति नास्ति, तत्र कारणस्य सामग्री इति अस्ति, सामग्र्यां तत्र अनेकानि कारणानि सन्ति, अतः तत्र एकमेव कारणमिति नास्ति, अतः अत्र माध्यम यद्यपि अस्ति लोकव्यवहारे माध्यममिति साधनमिति अस्ति, किन्तु न्यायशास्त्रे माध्यमम् अथवा साधनम् इत्युक्ते तत्र कारणमिति एव भवति। हा, अतः तत्र यदि मनः नास्ति चेत् तत्र ज्ञानं न उत्पद्यते, अतः तत्र मनः अपि तत्र कारणम् इति एव वक्तव्यमस्ति न्यायशास्त्रे।
अस्तु महोदय, अहं चिन्तयामि कारणं सुखस्य पूर्वक्षणे भवितुं
नाम सुखस्य कारणं नास्ति, सुखस्य ज्ञानस्य कारणं,
ज्ञानादीनाम् आदि कः, ज्ञानस्य कारणं सत्यम्,
नाम अस्तु अस्तु अस्तु, तर्हि तत्र हा ज्ञानाधीनाम् इत्युक्ते तत्र अहं ज्ञानाधीनां नाम सुखमयी अस्ति इति तद् सुखम् अस्ति इति तस्य प्रत्यक्षज्ञानमपि तत्र केवलम् इन्द्रियेण तत्र मनसा इव भवति इति तावदेव वक्तव्यं, तावदेव अत्र अस्ति महोदय, किन्तु सुखस्य साक्षात् कारणमिति नास्ति, अतः तत्र ज्ञानस्य ज्ञानाधीनां कारणं, हा तर्हि तत्र
प्रायः सुखस्य कारणं प्रायः यद्यपि यतोहि मनसः नित्यः अतः सुखस्य पूर्वक्षणे अस्ति,
हा सत्यं महोदय, किन्तु
आत्मनि अस्ति, मनः आत्मनि अस्ति वा,
सत्यं सत्यं, न न न मनः आत्मनि नास्ति, तत्र आत्मनि अस्ति इति अपि वक्तुं शक्नुमः, किन्तु तत्र आत्मापि मनसि अस्ति इति वक्तुं शक्नुमः, तत्र यथा तत्र वयं तत्र हस्तस्य संयोगः, हस्तद्वयस्य संयोगः भवति, तत्र एकम् एकम् एकः हस्तः अन्यस्मिन् अस्ति इति न वक्तुं शक्नुमः खलु. किन्तु तत्र यदि तत्र भूतले घटः अस्ति चेत् तत्र नियामकत्वम् अस्ति, नाम तत्र घटः एव तत्र आदेयः, अपि भूतलमेव अधिकरणं. तादृशम् अत्र तत्र आकाशः अपि तत्र घटः, तत्र आकाशः घटे अस्ति वा अथवा घटः आकाशे अस्ति वा इति द्वयमपि साधु इति एव तत्र न्यायशास्त्रे चिन्तनं. नाम तत्र एकमेव अस्ति इति न वक्तुं शक्नुमः. अतः तत्र मनः आत्मनि अस्ति इति वक्तुं शक्नुमः. किन्तु तत्र सुखस्य कारणं, तर्हि तत्र सुखे सुखस्य कारणेषु मनः अपि अस्ति न वा इति.
रूल्स्
अस्ति महोदय, पूर्वक्षणे अस्ति सत्यं, कार्यस्य स्थले अस्ति, सुखस्य स्थले यदि आत्मा अस्ति मनः अपि
अस्ति,
तर्हि तत्र अस्ति, तर्हि मनः कार्यस्य स्थले अस्ति सर्वदा.
सत्यं महोदय, न तत्तु सत्यं, किन्तु तेन तेनैव पर्याप्तं न वा इति तत्र मनसि तत्र क्लेशः अस्ति महोदय. अतः तत्र सम्यक्तया एतदेव अस्ति इति न वक्तुं शक्नोमि. किन्तु यथा यत् भवत्या उक्तं सत्यमेव, तत्र निकषत्रयं यत् अस्ति तत्र कारणस्य ते तु अत्र सम्यक् सङ्गच्छति एव. तर्हि हा, किन्तु इदानीं मम मनसि किञ्चित् क्लेशः अस्ति महोदय, अतः तत्र इदानीं न वदामि, किन्तु चिन्तयित्वा अग्रिमवर्गे वदामि महोदय.
अस्तु महोदय. सुखादीनाम् उपलब्धेः प्रत्यक्षसाधनम्, अतः
साधनं
साधनम् इति कारणम्. अतः सुखादीनां उपलब्धेः प्रत्यक्षम् उपलब्धेः प्रत्यक्षज्ञानम्. अतः प्रत्यक्षस्य एकमेव उपलब्धेः प्रत्यक्षः एकमेव
एकमेव,
तस्य कारणम् अपि मनः इति उक्तम्.
हा समीचीनं समीचीनं महोदय, हा तदेव अस्ति. हा ओके, हा हा क्षम्यताम्,
अग्रे अपि पठामि वा?
तावत् तावत् तावत्
धन्यवादः. ओके, ऐल् गो टर्न् अण्ड् कम्, लेट् हिम् टाक्.
वर्गात् अनन्तरं भवती आगच्छति इति कृत्वा भवती पठितुम् इच्छति वा? जयलक्ष्मी भगिनी
महोदय, मम नाम उक्तवान् वा? न श्रूयते आसीत्.
श्रूयते
किम्?
इदानीं
श्रूयते, किन्तु भग्नः जायते, न जाने केवलं मम कृते एव वा इति.
भवती पठितुम् इच्छति वा?
आं पठामि महोदय. अधुना प्रश्नः उदेति आरभ्य
इति वा? अस्तु अस्तु, चिन्ता मास्तु भगिनि, कोऽपि पठेत् तर्हि. हा तदनन्तरम् अग्रे पठतु भगिनि इति वदामि. हा हा अधुना प्रश्नः उदेति इति तत्र एव समीचीनं. हा
आम् महोदयस्य शब्दः किञ्चित् भग्नः जायते, पठामि इदानीम्
इति वा? एकनिमिष. हा अस्तु भगिनि, हा इदानीं सम्यक् सम्यक्तया श्रूयते वा?
इदानीं सम्यक् श्रूयते महोदय, पूर्वं क्लेशः आसीत्.
पूर्वं क्लेशः आसीत् वा? अस्तु अस्तु समीचीनं. हा अस्तु अस्तु, हा जयलक्ष्मी भगिनी पठतु तर्हि. हा जयलक्ष्मी भगिनी अस्तु तत्र श्रूयते वा मम ध्वनिः श्रूयते वा अथवा इदानीमपि क्लेशः वर्तते वा
श्रूयते
अस्तु 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 तर्हि तत्र जयलक्ष्मी भगिन्याः तत्र तस्याः कृते तत्र प्रायः न श्रूयते इति मन्ये अस्तु तर्हि अन्य कोऽपि पठेत् तर्हि तत्र नरसिंह महोदय भवान् पठितुम् इच्छति वा
अधुना प्रश्नम् उदयति मनः कुत्र वर्तते शरीरस्य अन्तर्भावे वर्तते आत्मा शरीरे वर्तते मनः अपि शरीरे भवति किन्तु जीवात्मकः विभुत्वात् सदा सर्वशरीरे भवति जीवात्मा मनः एकसमये शरीरस्य एकस्मिन्नेव स्थले भवति किन्तु सर्वशरीरे सञ्चरति चक्षुरिन्द्रियेण यदा प्रत्यक्षं जायते तदा मनः तत्र आगच्छति चक्षुरिन्द्रियस्य अत्र प्रश्नः अस्ति महोदय प्रश्नः अस्ति मनः कुत्र वर्तते मनः कुत्र वर्तते इति प्रश्नः इत्युक्ते मनसः अधिकरणं किम् इति अत्र मनः किं भवति शरीरस्य
न न नाम तत्र मनसः परिमाणं कीदृशम् अस्ति
मनसः परिमाणम् अणुपरिमाणम् अस्ति
अतः तत्र यद् अपि तत्र अणुपरिमाणम् अस्ति इति कृत्वा तस्य प्रत्यक्षं जायते वा
तस्य प्रत्यक्षं न जायते
अतः तत्र कुत्र अस्ति इति न दृष्ट्वा न वक्तुं शक्नुमः खलु तर्हि अतः तत्र केवलं कुत्र अस्ति इति तत्र अन्यारीत्या एव तत्र साधनीया अस्ति अस्माभिः खलु
आं महोदय अन्यरीत्या साधनीयमस्ति अनुमानेनैव अनुमानेनैव साधितुं शक्नुमः शरीरस्य अन्तर्भागे वर्तते शरीरस्य अन्तः भागे वर्तते मनः आत्मा शरीरे वर्तते मनः अपि शरीरे भवति आत्मा अनन्तरं मनः इति अस्माकं शरीरे भवति किन्तु जीवात्मनः विभूत्वात् तस्य जीवात्मना परिमाणः अस्ति विभुः तदा जीवात्मना सर्वशरीरे भवति विभुत्वात् परन्तु मनः
महोदय पुनः तत्र विभुत्वात् तत्र विभुः नाम किं
विभुः नाम परममहत् परिमाणं
न किञ्चित् भिन्नं तत्र विभुद्रव्याणां तत्र परिमाणं तु परममहत् परिमाणमस्ति किन्तु तत्र विभुत्वं नाम तत्र सर्वमूर्त
द्रव्यरूपं सर्वरूप सर्वमूर्तद्रव्य संयोगः
संयोगत्वम् एव तत्र अस्ति अतः तत्र तर्हि तत्र सर्वविभुद्रव्य तत्र सर्वमूर्तद्रव्यसंयोगत्वम् अतः तत्र मनः इति तत्र मूर्तद्रव्यमस्ति खलु
मनः अपि मूर्तद्रव्यमस्ति
मूर्तद्रव्यं नाम यस्मिन् क्रिया
वर्तते
मनः मनसि तत्र क्रिया वर्तते वा
मनसः अपि क्रिया वर्तते मनसः एव प्रत्यक्षं भवति
न मनसः क्रिया वर्तते नाम तत्र यदा तत्र यथा तत्र कन्दुके क्रिया वर्तते वा
कन्दुके क्रिया वर्तते
नाम तत्र कन्दुकः अत्र अस्ति इदानीं तत्र कन्दुकम् अन्यत्र स्थापयितुं शक्नुमः तत्र रैल् यानम् इतः ततः गच्छति इति वक्तुं शक्नुमः तथैव तत्र मनः अपि तत्र सर्व तत्र एकस्मिन् स्थले न तिष्ठति खलु
तत् एकस्मिन् स्थले न तिष्ठति
अतः एव तत्र मनः अपि तत्र मनसि
क्रिया
भवति अतः तत्र मनः अपि तत्र मूर्तद्रव्यमस्ति विभुः नाम सर्वमूर्त द्रव्यसंयोगत्वं तर्हि तत्र आत्मजीवात्मा अपि मनः तयोः मध्ये तत्र संयोगः निश्चयेन वर्तते अस्तु अग्रे
मनः एकस्मिन् समये शरीरस्य एकस्मिन् एव स्थले भवति किन्तु सर्वशरीरे सञ्चरति मनः एकत्र सर्वदा एकत्र न भवति, शरीरे सञ्चरति तत् मनः.
नाम इदानीम् अस्मिन्नेव भागे भागे शरीरे अस्मिन् तत्र मनसः शरीरमस्ति, एकमेव शरीरमस्ति मनसः. जीवात्मनः अपि तत्र एकमेव शरीरमस्ति. तत्र जीवात्मा यः अस्ति तस्य तु तत्र सर्वमूर्तसंयोगत्वम् अस्ति इति कृत्वा तत्र जीवात्मा सर्वेषु शरीरेषु वर्तते, किन्तु तत्र मनः केवलम् एकस्मिन्नेव शरीरे भवति. जीवात्मा शरीरे भवति, सर्वेषु शरीरेषु भवति, मनः शरीरे भवति, केवलम् एकस्मिन्नेव शरीरे भवति. अपि तत्र शरीरे कुत्र अस्ति इति न वक्तुं शक्नुमः, यतोहि तत्र इतः ततः शरीरे इतः ततः ततः गच्छति एव. अस्तु अग्रे.
चक्षुरेन्द्रियेण यदा प्रत्यक्षं जायते तदा मनः तत्र आगच्छति. चक्षुरेन्द्रियस्य मनसा सह तदा संयोगो भवति.
तत्र तत्र आगच्छति इति तावत्पर्यन्तं वदतु महोदय. चक्षुरेन्द्रियेण यदा प्रत्यक्षं जायते,
यदि वयं चक्षुरेन्द्रियेण किमपि घटं वा किमपि अन्यद्रव्यं पश्यामः चेत् तस्य प्रत्यक्षं किं कुत तत्र प्रत्यक्षं किं कथं भवति इत्युक्ते मनः आगच्छति तत्र, मनसा एव तस्य प्रत्यक्षं भवति.
हा इति तावत्पर्यन्तं समीचीनं महोदय. नाम तत्र चक्षुषा प्रत्यक्षज्ञानं जायते, नाम घटः अस्ति, घटस्य प्रत्यक्षज्ञानं तत्र अस्माकं तत्र केवलं चक्षुषा जायते इति एतावत् उक्तमस्ति, किन्तु तत्र यदि केवलं तत्र चक्षुः एव अस्ति चेत् अपि मनः नास्ति चेत् तत्र वयं किं तत्र घटं द्रष्टुं शक्नुमः वा?
न द्रष्टुं शक्नुमः.
हा खलु, तर्हि तत्र मनः अपि भवेत् चक्षुः अपि भवेत् तदा एव तत्र घटस्य प्रत्यक्षं भवितुम् अर्हति. हा अतः तत्र इदानीम् उक्तं किमुक्तम् अस्ति इत्युक्ते तत्र चक्षुः चक्षुषा तत्र कस्यापि पदार्थस्य प्रत्यक्षज्ञानं जायते तदा चक्षुषः समीपे तत्र मनः अपि आगच्छति. तदा वयं मनसः तत्र मनः कुत्र अस्ति इति वक्तुं शक्नुमः, नाम चक्षुषः समीपे तत्र मनः अस्ति इति वक्तुं शक्नुमः तस्मिन् समीपे, किन्तु सर्वदा तत्र मनः कुत्र अस्ति इति न वक्तुं शक्नुमः इति अस्ति. समीचीनं महोदय. हा धन्यवादः. अस्तु
धन्यवादः.
हा इदानीं तत्र अन्य कोऽपि इदानीं वदेत् तर्हि तत्र हा नीता भगिनी इदानीं तत्र किञ्चित् वदतु स्वशब्दैः तत्र एतावत् भवत्या किम् अवगतम् इति.
हा अत्र मनः विषये मन तु नित्यम् इति अस्ति, किन्तु मनसः परिमाणं तु परमाणुपरिमाणमस्ति, तत् तत्र विभुत्वं नास्ति इति. यदि विभु इति वदामः चेत् विभु इत्युक्ते सर्वमूर्तद्रव्यसंयोगित्वं. हा अत्र आत्मनः परिमाणं तु विभु अस्ति, आत्मनः परिमाणं विभुः अस्ति, परममहत् आत्मा इति विभुद्रव्यमस्ति, तस्य परममहत् परिमाणमस्ति, किन्तु मनः परमाणुपरिमाणम् इति वक्तुं शक्नुमः. अत्र जीवात्मनः तु विभुः, अतः जीवात्मनः सदा सर्वशरीरे भवति. जीवात्मा सर्वशरीरे भवति, किन्तु मनः तु विभु नास्ति, अतः एकस्मिन् समये एकस्मिन् शरीरे एव भवति. अत्र इतोपि यतोहि मनः एकस्मिन् स्थले एव भवति, तर्हि तस्य सञ्चार सर्वशरीरे भवति, सर्वशरीरे मनः भवति. एकस्मिन् शरीरे शरीरस्य सर्वभागे एकस्मिन् शरीरस्य सर्वभागे तस्य सञ्चार भवति. अतः अत्र इतोपि एकमस्ति, यदा वयं कोऽपि दृश्यं पश्यामः चेत् चक्षुन्द्रेण चक्षुषः वयं चक्षुषा वयं पश्यामः, तस्य ज्ञानं चक्षु इन्द्रियेण वयं गृह्णामः, किन्तु तत्र तस्मिन्नेव स्थले चक्षुन्द्रियेण सह चक्षुन्द्रियस्य मनसा संयोगः भवति. अत्र यद्वयं पूर्ववारं दृष्टवन्तः इदं पुस्तकम्, अनन्तरम् अहं जानामि इदं पुस्तकं, तत्र ज्ञानम् अहम् अस्मि इति ज्ञानं वा इदं पुस्तकमस्ति, तस्य ज्ञानं मनसा एव गृह्णाति गृह्यते. अतः यदा
भगिनी इदानीं एकः प्रश्नः तत्र समीचीनं, किन्तु तत्र प्रश्नः तत्र यदा वयं तत्र गतवर्गे पठितवन्तः तत्र अयं घटः इति ज्ञानं, तदनन्तरम् अहं घटं जानामि इति ज्ञानं, तत्र ज्ञानद्वयम् अस्ति खलु तत्र.
आम् आम्
हा, तत्र प्रथमविधं ज्ञानम् अस्ति, प्रथमज्ञानम् अस्ति, द्वितीयज्ञानम् अस्ति. तर्हि तत्र प्रथमज्ञानं चक्षुषा लब्धं ज्ञानं, द्वितीयज्ञानं केवलं मनसा एव प्राप्तं ज्ञानं. किन्तु अत्र प्रश्नः तत्र अत्र यत् चक्षुषा तत्र घटस्य ज्ञानं प्राप्नुमः इति चिन्तने, तत्र प्रथमज्ञानम् इति विषयः वा तत्र द्वितीयज्ञानम् इति विषयः वा?
अत्र अस्मिन् परिच्छेदे द्वितीयज्ञान इति विषयः
इति नास्ति भगिनि. हा, तत्र अत एव पृष्टवान्, प्रथमज्ञाने एव तत्र यदा तत्र अयं घटः इति ज्ञानं, तत्र घटः अस्ति, घटं पश्यामः, तत्र चक्षुषा घटस्य प्रत्यक्षज्ञानम् इति पूर्वम् उक्तवन्तः. किन्तु केवलं चक्षुः अस्ति चेत् अपि मनः नास्ति चेत् तत्र ज्ञानं भवति वा?
न न न न, केवलं चक्षुषा न भवति, तस्मिन् क्षणे तत्र मनः आगच्छति.
अतः एव तत्र चक्षुषापि अपेक्षते, मनः अपि अपेक्षते
तस्मिन् स्थले तस्मिन् समये, मनः अपि अपेक्षते.
तर्हि तत्र मनः कुत्र, तस्मिन् क्षणे मनः कुत्र अस्ति इत्युक्ते तत्र मनः चक्षुषः समीपे अस्ति इति वक्तुं शक्नुमः.
अत्र ज्ञानस्य विषयः प्रथम एव अस्ति, चक्षुषा ज्ञानं यत् वयं प्राप्नुमः तस्मिन् क्षणे तत्र मनः अपि आगच्छति, मनसा संयोगः भवति, अतः वयं ज्ञानं प्राप्नुमः
इति अस्ति भगिनि. समीचीनं, नाम मनसः संयोगः भवति चक्षुरिन्द्रियेण, तदनन्तरं चक्षुरिन्द्रियेण तत्र पदार्थस्य यः कोऽपि पदार्थः घटः वा किमपि वा भवेत् तत्र अपि तत्र कापि प्रक्रिया भवति येन ज्ञानम् उत्पद्यते. एतत् सर्वम् अग्रे पश्यामः, तत्र ज्ञानस्य प्रत्यक्षज्ञानस्य उत्पादनं कथं भवति इति अग्रे द्रक्ष्यामः. तर्हि तत्र किन्तु केवलं तत्र बहिरिन्द्रियम् अस्ति चेत् तत्र ज्ञानं नोत्पद्यते. बहिरिन्द्रियमपि भवेत्, आभ्यन्तर इन्द्रियं नाम मनः इति इन्द्रियमपि तत्र भवेत्, तदा एव तत्र ज्ञानस्य उत्पादनं भवति. अतः प्रथमज्ञानमेव अत्र तस्य तदेव अत्र उक्तम् अस्ति.
तदपि मनः एव अन्तर्भूतः अस्ति, यत् चक्षुषा ज्ञानं वयं प्राप्नुमः तत्र मनः अपि अन्तर्भूतः अस्ति, मनसा सह संयोगः भवति, अतः वयं ज्ञानं प्राप्नुमः इति
अस्ति भगिनि. समीचीनं, अस्तु, धन्यवादः भगिनि. अस्तु,
धन्यवादः.
इदानीम् अग्रे तत्र एकनिमिषः अत्र तर्हि तत्र शुभदा भगिनी पठितुम् इच्छति वा अग्रे?
आं महोदय, पठामि. तस्मिन् क्षणे मनः अन्यत्र नास्ति, तत्रैव अस्ति. घ्राणेन्द्रियेण यदा प्रत्यक्षं जायते तदानीं घ्राणेन्द्रियेण सह मनसः संयोगः अपेक्षते. अतः तस्मिन् समये मनः तत्र आगच्छति. अपि च यदा गन्धस्य प्रत्यक्षं भवति तस्मिन् क्षणे न त्वगिन्द्रिये त्वगिन्द्रियेण चक्षुरिन्द्रियेण श्रवणेन्द्रियेण वा प्रत्यक्षं भवति एकस्मिन् समये एकमेव ज्ञानं. मनः बहु वेगेन गच्छति एकस्य अनन्तरम् अन्यत् प्रत्यक्षम् एकस्य अनन्तरं अन्यत् प्रत्यक्षम्. मनः अत्यन्तवेगशाली एकस्मिन् एव समये सर्वं ज्ञानम् उत्पन्नम् इति भ्रान्तिः अस्माकम् इति च मनः क्षणात्मकज्ञानादीनां कारणम् अस्तु.
अस्तु वदतु भगिनि.
यथा वयं दृष्टवन्तः चक्षुरिन्द्रियेण यदा प्रत्यक्षं ज्ञानं भवति तत्र मनसः संयोगः भूत्वा तस्य सम्यक् ज्ञानं भवति. तथैव अस्तु. तर्हि तस्मिन् क्षणे मनः अन्यत्र नास्ति. मनः तत्र चक्षुरेन्द्रियेण सह तस्य संयोगः भवति तत्रैव अस्ति. तादृशमेव घ्राणेन्द्रियेण यदा प्रत्यक्षं जायते तदानीं घ्राणेन्द्रियेण सह मनसः संयोगः अपेक्षते. तस्मिन् समये मनः तत्र आगच्छति. गन्धः भवति चेत् अपि च यदा गन्धस्य प्रत्यक्षं भवति तस्मिन् क्षणे त्वक् इन्द्रियं यत् अस्ति तस्य तेन अथवा चक्षुः इन्द्रियेण अथवा श्रवणेन्द्रियेण तत्र मनसः संयोगः न भवति परन्तु घ्राणेन्द्रियेण सह एव मनसः संयोगः भवति. एकस्मिन् समये एकस्य एव ज्ञानं भवति न तु अनेकपदार्थानां ज्ञानं तत्र भवति इति तु न. तत्र मनः अपि बहु वेगशाली इति अस्ति. एकस्य अनन्तरम् अन्यत् प्रत्यक्षम् एकस्य अनन्तरम् अन्यत् प्रत्यक्षम् एकस्मिन् अनन्तरम् अन्यत् ज्ञानं भवति तदनन्तरम् अन्यत् ज्ञानं भवति इति बहु वेगेन मनः कार्यं करोति इति दत्तमस्ति. एकस्मिन् एव समये सर्वं ज्ञानम् उत्पन्नं भवति इति तु अस्माकं भ्रान्तिः एव. तत्तु न सम्यक् इति अत्र आशयः. क्षणात्मकः अतः मनः क्षणात्मकज्ञानादीनां कारणम् अतः एव मनसः वेगः तत्र कारणीभूतः अस्ति. यतोहि तत्र प्रत्येकस्मिन् क्षणे एव एकमेकं ज्ञानं भवति अत्यन्तवेगेन भवति. अतः ज्ञानं मनः क्षणात्मकज्ञानं यत् अस्माकं भवति तस्य मनः इति कारणं. यतोहि तत्तु बहु वेगवान् अपि च एकस्मिन् क्षणे एकमेव ज्ञानं तत् करोति इति तस्य आशयः.
समीचीनं भगिनि. एकनिमिषः. अस्तु भगिनि. हा इदानीं तत्र अन्य कोऽपि इदानीं तत्र भगिनि तत्र एकः प्रश्नः तत्र अत्यन्तवेगशाली इति अस्ति खलु तत्र तत्र वेगशाली इति मध्ये तत्र वेगशाली इति पदस्य किञ्चित् विवरणं करोतु तत्र.
मनः इति मनस् इति सकारान्त नपुंसकलिङ्गपदं तस्य वेगशालिन् इति विशेषणं भवति. तस्य विशेषणं भवति इति कृत्वा वेगशाली तस्य प्रथमा विभक्ति एकवचने वेगशाली इति भवति.
समीचीनं भगिनि. नाम तत्र वेगम् अपि तत्र किमर्थं तत्र ह्रस्व इकारः तत्र वेगशाली इति
तत्र नपुंसकलिङ्गि अस्ति इति कारणात्
समीचीनं भगिनि. समीचीनं तत्र इनि प्रत्ययः इति कृत्वा
भवति
समीचीनं तथैव
इत्यस्य अपि वेगः यस्मिन् अस्ति इति वेगशालिन् इति भवेत् इति मन्ये.
सत्यं भगिनि, हा तथैव अस्ति. तत्र इनिप्रत्यय इति कृत्वा तत्र नपुंसकलिङ्गे तत्र ह्रस्व इकारः अतः तत्र वेदशाली इति हा इति अस्ति. समीचीनं भगिनि, हा अस्तु. इदानीं धन्यवादः भगिनि. हा इदानीम् अस्तु तर्हि, हा तर्हि तत्र अन्य कोऽपि वदेत् तर्हि तत्र प्रेमलता भगिनी किञ्चित् वदति वा स्वशब्दैः किं किम् अवगतम् इति.
महोदय, प्रयत्नं करोमि. मनः इति मनसः एतत् क्षणात्मकं ज्ञानं मनसः इति अन्ते उक्तं, तदेव भवति अत्र ज्ञानस्य एकस्मिन् समये एकज्ञानय इति कारणं भवेत्. एक चक्षुषा अथवा अन्यरीत्या तगिन्द्रियेण एतद् अन्यरीत्या अपि दृश्यते. एकस्मिन् क्षणे एकस्य ज्ञानम् एव प्रत्यक्षं भवति. मनः तत्र एव वर्तते, तस्य संयोगेन एव तत् इन्द्रियेण संयोगेन एव वर्तते तस्मिन् समये
एकस्मिन् तत्र यदि तत्र प्रत्यक्षज्ञानम् इति नाम इन्द्रियैः लब्धं ज्ञानं, तत्र चक्षुरिन्द्रियेण लब्धं ज्ञानम् इति अस्ति चेत् तस्मिन् सन्दर्भे मनः कुत्र वर्तते?
चक्षुरिन्द्रियेण वर्तते.
हा, चक्षुरिन्द्रियस्य समीपे
वर्तते,
तत्र संयोगसम्बन्धेन अत्र वर्तते. अपि गन्धः इति तस्य प्रत्यक्षज्ञानं भवति चेत् तदा गन्धस्य प्रत्यक्षज्ञानं भवति चेत् तत्र केन इन्द्रियेण गन्धस्य प्रत्यक्षज्ञानं भवति?
नासाग्रे वर्तते न,
तत्र घ्राणेन्द्रियेण. समीचीनं, नासाग्रवर्ति घ्राणेन्द्रियेण तस्य ज्ञानं भवति. तदा तत्र यदि तत्र गन्धस्य ज्ञानं भवति तस्मिन् समये तत्र घ्राणेन्द्रियेण
घ्राणेन्द्रियेण समीपे वर्तते.
हा, तस्य समीपे मनः वर्तते इति. समीचीनं भगिनि. हा, हा, अपि तत्र
भवति.
हा, तस्मिन्
तस्मिन् समये स्वगेन्द्रियेण स्वगेन्द्रियसमीपे मनः वर्तते
वर्तते इति अस्ति. समीचीनं, हा, अस्तु, समीचीनं भगिनि. हा, अतः तत्र तत्र मनसः परिमाणं तत्र परमाणुपरिमाणम् इति कृत्वा साक्षात् तत्र तस्य प्रत्यक्षज्ञानं न भवति. अथ तत्र केवलं तत्र अनुमानेन एव वक्तुं शक्नुमः. अपि यद्यपि तत्र वयम् एतावत् उक्तवन्तः नाम तत्र घ्राणेन्द्रियस्य समीपे वर्तते अथवा चक्षुरिन्द्रियस्य समीपे वर्तते, तत्र चक्षुरिन्द्रियं तस्य प्रत्यक्षज्ञानम् अस्माभिः भवति वा? चक्षुरिन्द्रियस्य प्रत्यक्षज्ञानम् अस्ति वा?
इन्द्रियस्य ज्ञानं न भवति.
हा, इन्द्रियस्य ज्ञानं न भवति. अतः एव यथा भवत्या उक्तं नाम नासाग्रवर्ति इति एव तत्र घ्राणेन्द्रियस्य लक्षणमस्ति खलु, नाम घ्राणेन्द्रियस्य प्रत्यक्षज्ञानं नास्ति. कुत्र अस्ति इत्युक्ते तत्र नासाग्रे वर्तते इति एव तावदेव वयं वक्तुं शक्नुमः. अतः तत्र मनः कुत्र अस्ति इति प्रत्यक्षज्ञानं नास्ति, घ्राणेन्द्रियं कुत्र अस्ति इति अपि तस्य प्रत्यक्षज्ञानं नास्ति, किन्तु कुत्र मनः वर्तते इत्युक्ते घ्राणेन्द्रियस्य समीपे वर्तते इति एव तत्र समाधानम् अस्माभिः वयं तादृशसमाधानमेव दातुं शक्नुमः इति अस्ति. समीचीनं, हा, अस्तु. अतः तत्र एतावत् तत्र करपत्रे नास्तु. धन्यवादः भगिनि. हा, इदानीम् अन्य कोऽपि
धन्यवादः.
अस्तु, इदानीम् अन्य कोऽपि वदेत् तर्हि तत्र हा, अस्तु, तर्हि तत्र जयलक्ष्मी भगिनी इदानीं वक्तुं शक्नोति वा? श्रूयते वा?
आम् आम् महोदय, क्षम्यतां.
तर्हि तत्र अधोभागे तत्र लक्षणवाक्यं लिखितमस्ति.
तदेव उक्तं सुखादि उपलब्धि साधनम् इन्द्रियं मनः तच्च प्रत्यात्मा नियतत्वात् अनन्तं परमाणुरूपं नित्यं च. अत्र मनसः लक्षणवाक्यम् उक्तमस्ति. सुखादि उपलब्धिसाधनम् इन्द्रियं मनः इति उक्तम्. यतोहि पञ्चेन्द्रियाणि अन्यानि सन्ति अस्माकं शरीरे, तेन प्रत्यक्षं ज्ञानं जनयति, यथा कदा अनुमानेन अपि ज्ञानं जनयति. तस्मात् उत्पद्यमानं सुखादि उपलब्धिः मनसा एव लभ्यते इति अत्र अर्थः इति.
हा, समीचीनं भगिनी, समीचीनम्. उपलब्धिः नाम प्रत्यक्षज्ञानम्. उपलब्धिः इत्युक्ते प्रत्यक्षं ज्ञानं. प्रत्यक्षज्ञानं नाम इन्द्रियेण प्राप्तं ज्ञानम्. तत्र
तादृशसुखदुःखादि उपलब्धिः मनसा एव जायते, मनसा इन्द्रियेण एव ज्ञायते. षष्ठः इन्द्रियः मनः इति स्वीकर्तव्यः.
पञ्चेन्द्रियेण षष्ठम् इन्द्रियं मनः इति, षष्ठम् इन्द्रियं
मनः इति
भवेत्. समीचीनं.
पञ्चेन्द्रियेण यद्यपि प्रत्यक्षज्ञानं अथवा अनुमानेन ज्ञानं भवति, तथापि तेन एव सुखं दुःखम् इत्यादि उपलब्धिः, तादृश उपलब्धिः मनसा एव भवति इति अत्र.
समीचीनं. नाम तत्र घटस्य ज्ञानं चक्षुरेन्द्रियेण भवति, किन्तु सुखस्य ज्ञानं मनसा एव
भवति.
मनसा, अत्र अहं सुखी इति ज्ञानं केवलं तत्र मनसा एव
मनसः उपस्थितेः एव भवति.
अतः एव तत्र मनसा प्रत्यक्षं. तर्हि सुखादीनाम् उपलब्धिसाधनं मनः इति वक्तुं शक्नुमः. इदानीं तत्र लक्षणवाक्यम् इति यदुक्तं, तत्र लक्षणम् इति यदि वदामः, तत्र नियमाः के, लक्षणस्य नियमाः के इति किञ्चित्.
लक्षणस्य किम् अत्र
नाम तत्र
असम्भवः,
असम्भवदोषः मा भवेत्,
न भवेत्. पुनः किम् आसीत्
तत्र लक्ष्ये,
अव्याप्ति, अतिव्याप्तिदोषः, अव्याप्तिदोषः, असम्भवदोषः अपि न
भवेत्. अतिव्याप्तिदोषः नाम विजातीयेषु,
यद्यपि सर्वे अलक्ष्ये, अजादिषु सर्वेषु अत्र उदाहरणम् उक्तमासीत्. अन्येषु अपि तादृशस्वभावः न भवेत् इति. समान
केवलं समानजाति
लक्षणाभासः,
समानसजातीयेषु सर्वत्र लक्षणं भवेत्.
किन्तु
विजातीयेषु
न भवेत्,
नास्ति, न भवेत् इति. इति अस्ति, समीचीनं भगिनि. तर्हि तत्र इति अस्ति. इदानीं तत्र मनसः लक्षणम् उक्तम् अस्ति. तर्हि लक्ष्यं किम् अस्ति अस्माकं? तत्र मनसः लक्षणम् इति उक्तं, तर्हि लक्ष्यं किम् अस्ति अत्र?
लक्ष्यं
मनसः लक्षणम् उक्तं चेत् लक्ष्यं किम् अस्ति?
मनः,
मनः खलु,
मन
एव लक्ष्यं. यतोहि मनसः लक्षणम् उक्तं खलु, लक्ष्यस्य लक्षणं, तत्र मनसः लक्षणम् उक्तम् इति
कृत्वा
मनः एव लक्ष्यमस्ति अत्र खलु.
अस्तु, आम्.
इदानीं तत्र मनः
द्वितीयवाक्यमस्ति अत्र.
न, द्वितीयवाक्यं मास्तु इदानीं, तत्र केवलं प्रथमवाक्यमेव पश्यामः. तत्र मनः इति लक्ष्यमस्ति, तर्हि मनसि लक्षणं भवेत् खलु. तर्हि तत्र यदि लक्षणवाक्यम् इति उक्तं चेत् तत्र अस्माभिः परिशीलनीयं भवति खलु, तत्र दोषत्रयं नास्ति अस्ति वा इति तत्र द्रष्टव्यम् अस्ति खलु.
सत्यं.
तर्हि तत्र इदानीं तत्र लक्षणं किम् उक्तमस्ति? तत्र सुखादि उपलब्धि
साधनम् हा साधनम् इति मनः इति उक्तम्. किन्तु तत्र वयं यदि एतादृशं वदामः तर्हि किं भवति? तत्र यदि वयं तत्र वयम् उक्तवन्तः तत्र गन्धवत्वं पृथिव्याः
परीक्षणं परीक्षणं कर्तव्यम् इति वा
परीक्षा परीक्षा कर्तव्या अस्ति. तर्हि तत्र तर्हि तत्र मनसि किं भवेत् यदि तत्र वयं वदामः तत्र गन्धः पृथिव्याः लक्षणम् इति वदामः तत्र गन्धत्वम् अथवा तत्र गन्धवत्वम् इति एतादृशं वदामः खलु. अत्र किमस्ति? साधनं. तत्र साधनं मनः इति यदि वदामः तर्हि साधनम् इति यदस्ति तस्य साधनम् इत्युक्ते तत्र मनः खलु. यतोहि वयम् उक्तवन्तः साधनं उपलब्धिसाधनं मनः. तर्हि साधनम् इत्युक्ते मनः. साधनम् इति तत्र विशेषणवाचकपदम् अस्ति. तर्हि मनः विशेष्यम् अस्ति. तर्हि साधनं मनः अस्ति चेत् मनसि साधनत्वं भवेत् खलु. पुस्तकमस्ति, पुस्तके पुस्तकत्वम् अस्ति, तथैव पुस्तकमस्ति. तत्र अत्र मनः साधनम् अस्ति इति कृत्वा मनसि साधनत्वम् अस्ति खलु.
सत्यम्.
अतः तत्र कीदृशसाधनत्वम् अस्ति मनसि? सुखादीनां
सुखादि उपलब्धि साधनत्वं
साधनत्वम् अस्ति. नाम मनः सुखादीनां प्रत्यक्षज्ञानकारणम् अस्ति मनः इति अस्ति. अपि लक्षणवाक्ये अन्यदपि अस्ति खलु. तत्र केवलं तेनैव पर्याप्तं नास्ति. तदनन्तरं किमुक्तम्? इन्द्रियम् इति अपि उक्तं खलु. तर्हि तत्र इदानीं तत्र इन्द्रियमपि अस्ति, सुखादीनाम् उपलब्धिसाधनम् इति अपि उक्तं. तर्हि तत्र दलद्वयमस्ति खलु. यथा तत्र वयं दृष्टवन्तः तत्र रूपरहितत्वे सति पञ्चवान् वायुः इति तत्रापि दलद्वयम् आसीत् खलु. अत्रापि तत्र दलद्वयम् अस्ति. अतः किमर्थं दलद्वयम्? किमर्थम् एकमेव दलं पर्याप्तं न भवति इति प्रश्नः उदेति खलु. तर्हि तर्हि तत्र सुखादीनाम् उपलब्धि कारणं मनः इति एतत्तु समीचीनमस्ति. कारणत्वं तत्र मनसि अस्ति वा? तत्र साधनत्वम् अथवा कारणत्वं मनसि अस्ति खलु. यतोहि मनसा विना अथवा मनः विना तत्र प्रत्यक्षं सुखस्य प्रत्यक्षज्ञानं न जायते. किन्तु केवलं मनः अस्ति चेत् तत्र सुखस्य ज्ञानं भवति वा?
नास्ति. अत्र इन्द्रियाणि अन्य इन्द्रियाणि अपि भवेत्.
न किन्तु भवती उक्तवती खलु तत्र अन्यैः इन्द्रियैः तत्र तस्य प्रत्यक्षज्ञानं न भवति. किन्तु सुखम् इति तत्र गुणः अस्ति खलु.
आम् गुणः. आम्
गुणः अस्ति. इदानीं तत्र गुणः गुणस्य आश्रयः भवति खलु.
गुणस्य आश्रयः आत्मा एव.
आत्मा एव. समीचीनं. उत्तममस्ति भगिनि. तर्हि तत्र यथा तत्र गन्धः अस्ति, गन्धः तत्र घटे वर्तते, पार्थिवपदार्थेषु गन्धः वर्तते. तर्हि तत्र उदाहरणार्थं तत्र घटः इति स्वीकुर्मः. तर्हि घटे गन्धः वर्तते. गन्धः गुणः, गन्धस्य आश्रयः घटः इति. इदानीं तत्र घटस्य यदि नाशः भवति, किं तस्मिन् विद्यमानः तत्र गन्धः अपि वर्तते वा अथवा तस्यापि नाशः भवति?
तस्यापि नाशः भवति इति चिन्तयामि.
तर्हि तत्र गन्धः अस्ति चेत् तस्य कारणं नाम तत्र अस्ति इति कृत्वा तस्य अस्तित्वं तत्र गन्धः अस्ति तस्य कारणम् आश्रयः अपि कारणं भवति खलु. यतोहि आश्रयं विना गन्धः नास्ति, न भवितुमर्हति. अतः तत्र आश्रयः अपि तत्र कारणम् इति स्वीकर्तुं शक्यते खलु. कारणम् आश्रयः नास्ति चेत् पुनः न वर्तते. अत्र आश्रयः अस्ति परमात्मा.
सुखादि सुखादि आश्रयः आत्मा अस्ति.
यदि आत्मा नास्ति चेत् तत्र सुखः न भवति खलु.
न भवति.
हा तर्हि आत्मा अपि कारणः कारणम् अस्ति खलु.
आत्मा अपि आधारः सत्यं.
सुखस्य कारणम् आत्मा अपि अस्ति खलु. अपि वयम् उक्तवन्तः तत्र धर्मः अधर्मः इति तत्र ते अपि आत्मनः विशिष्टगुणाः सन्ति. किन्तु किन्तु तत्र तेषां तत्र प्रत्यक्षज्ञानं मनसा अपि तत्र प्रत्यक्षज्ञानं न भवति. किन्तु व्यापाररूपेण तत्र कल्पिताः ते सर्वे इति नाम तत्र धर्मः सुखस्य कारणम् अस्ति.
इत्युक्ते पुण्य पाप इत्यादि
पूर्वजन्म जन्मनि कृतं पुण्यं पुण्येन तत्र अस्मिन् जन्मनि तत्र सुखं सुखस्य उत्पत्तिः भवति इति खलु. धर्मः अपि कारणम् अस्ति. तर्हि सुखस्य कारणं मनसि अस्ति. सुखस्य कारणत्वं मनसि अस्ति. मनः इति कारणम् अस्ति सुखम् अस्ति. किन्तु तर्हि तत्र मनसि सुखस्य कारणत्वम् अस्ति. किन्तु केवलं मनसि एव अस्ति वा सुखस्य कारणत्वम्? कारणत्वं नाम केवलं कारणं. तत्र प्रथमदलं स्वीकुर्मः सुखादीनाम् उपलब्धि
तत्र इन्द्रियस्यापि अपेक्षा वर्तते इति.
इन्द्रियम् इति न वदामः इति चिन्तयतु. केवलं प्रथमदलमेव वदामः. तर्हि तत्र द्वितीयदलं नास्ति इति चिन्तनं. केवलं प्रथमदलमेव अस्ति. सुखादीनाम् उपलब्धिसाधनं मनः इति यदि लक्षणवाक्यं भवेत् तदा स्थितिः का इति प्रश्नः. नाम लक्षणवाक्ये दलद्वयम् अस्ति. केवलम् एकमेव दलम् अस्ति चेत् का हानिः इति प्रश्नः.
तत्र सुख इत्युक्ते सुखस्य परिज्ञानं भवति चेत् तत्र इन्द्रियस्यापि अपेक्षा वर्तते.
इन्द्रियमिति सुखस्य प्रत्यक्षज्ञानं भवति. सुखस्य प्रत्यक्षज्ञानं भवति इति चिन्तयतु. तर्हि तत्र सुखस्य प्रत्यक्षज्ञानं तत्र मनसा एव भवति इति वा अथवा तत्र केवलं कारणत्वं तत्र केवलं तत्र मनसि अस्ति वा तत्र अन्यत्र अपि अस्ति वा इति प्रश्नः.
तर्हि सुखस्य आधारः आत्मा अस्ति.
सुखस्य आधारः आत्मा अस्ति.
सुखादि उपलब्धिः साधनं तु मनः अस्ति.
हा किन्तु तत्र परम्परया तत्र यदि सुखं नास्ति चेत् तस्य प्रत्यक्षज्ञानमपि न भवति खलु. अतः तत्र तर्हि तत्र वयम् एतदपि वक्तुं शक्नुमः नाम तत्र यदि तत्र आश्रयः नास्ति अथवा पुण्यकार्यं तत्र पूर्वजन्मनि पुण्यकार्यं नास्ति चेदपि सुखं न भवति. अतः तत्र कारणत्वं सुखस्य कारणत्वम्
अपि धर्मः
सुखस्य कारणम् इति भिन्नमेव. किन्तु सुखं नास्ति चेत् सुखस्य ज्ञानं न भवति. अतः तत्र परम्परया वयम् एतदपि वक्तुं शक्नुमः तत्र यदि सुखं नास्ति चेत् सुखस्य ज्ञानं न भवति. अतः सुखस्य कारणं सुखस्य ज्ञानस्य कारणमपि भवितुम् अर्हति इति वक्तुं शक्नुमः खलु. हा तर्हि तत्र धर्मः अपि सुखस्य कारणम् अस्ति. तर्हि सुखस्य ज्ञानस्य कारणमपि अस्ति इति परम्परया वक्तुं शक्नुमः. तर्हि तत्र धर्मः एतादृशं चिन्तनं कुर्मश्चेत् तत्र धर्मः अपि सुखस्य कारणमस्ति, सुखस्य ज्ञानस्य कारणमपि अस्ति चेत् तर्हि सुखस्य प्रत्यक्षज्ञानस्य कारणं धर्मः अपि
भवति.
धर्मे अपि तत्र कारणत्वं वर्तते. आत्मनि अपि
कारणत्वं वर्तते इति भवति. अतः एतादृशचिन्तनं यदि कुर्मः अग्रे तत्र पुनः तत्र प्रायशः तत्र विद्याधर्यामपि पठामः तत्र दलद्वयं किमर्थम् इति. किन्तु तत्र किं भवति, अत्र अतिव्याप्तिदोषः भवति, नाम लक्ष्ये अस्ति किन्तु लक्ष्यं विहाय अन्यत्रापि कारणत्वं वर्तते इति भवति. इदानीं तत्र द्वितीयदलं किम् अस्ति, इन्द्रियम्
धन्यवादः महोदय. कश्चन प्रश्नः अपि अस्ति, अग्रे अपि प्रष्टुं शक्नोमि. इत्युक्ते अत्र एतादृशम् उक्तं खलु, एकस्मिन् समये एकस्मिन्नेव एकस्य एव ज्ञानं भवति इति उक्तं खलु,
सत्यं भगिनि,
मनसः. तत्र वस्तुतः इदानीं यदा किमपि चलनचित्रं पश्यामः चेत् तत्र वयं श्रोतुमपि शक्नुमः द्रष्टुमपि शक्नुमः, द्वयोः अपि युगपत् एव इन्द्रियाणां कार्यं भवति खलु, तत्र मनसः अपि सान्निध्यं तत्रापि भवति खलु. इत्युक्ते
समीचीनप्रश्नः भगिनि, समीचीनप्रश्नः भगिनि. तत्र तर्हि तत्र किं भवति,
एकस्मिन् एकस्य इन्द्रियस्य प्रवर्तनसमये एव तस्य मनसः तस्य उपस्थितिः भवति इति अत्र उक्तं, तत्र किञ्चित् क्लेशः.
समीचीनप्रश्नः भगिनि. तत्र इदानीं तत्र सम्यक् उत्तरं न जानामि, किन्तु एकं तत्र एकं चिन्तनं केवलं वदामि, तदनन्तरं तत्र अरविन्दमहोदय यदि जानाति यदि वक्तुम् इच्छति चेत् सः अपि वदति. किन्तु एकं चिन्तनमस्ति, नाम तत्र यद्यपि तत्र अस्माकं चिन्तनम् अस्ति तत्र एकस्मिन् समये वयं शृण्मः अपि पश्यामः, किन्तु तत्र वेगः अस्ति इति कृत्वा तत्र एकस्मिन् क्षणे तत्र तत्र चक्षुरिन्द्रियस्य समीपम् अस्ति मनः, द्वितीयक्षणे तत्र श्रोत्रेन्द्रियस्य समीपे अस्ति अपि तत्र मनः, तत्र क्षणमिति तत्र बहु न्यूनातिन्यूनं तत्र समयस्य भागः अस्ति इति कृत्वा अस्माभिः तत्र न दृश्यते. वयं चिन्तयामः युगपत् भवति, किन्तु तत्र प्रायशः तत्र युगपत् न भवति, किन्तु तत्र समयस्य अवधिः तादृशी लघुः अस्ति, तत्र अस्माकं तत्र ज्ञानमेव नास्ति इति मम चिन्तनं, मम मतम् इदानीं, किन्तु तस्मिन् विषये किञ्चित्
तदेव अस्ति महोदय. क्षिप्रगामी अस्ति मनः, सर्वशरीरवर्ती अस्ति इति कृत्वा एकैकक्षणे एकैक इन्द्रियद्वारा ज्ञान करणत्वं इति ज्ञान यदा दर्शनं भवति चक्षुरस्ति, अग्रिमक्षणे तत्र क्षणस्यापि बहु न्यूनभागमस्ति इति कृत्वा तत्र श्रोत्रेन्द्रियं प्रति गच्छति. तत् वयं तु तद् न जान कथं भवति इति जानीमः, कथं जानीमः इति कृत्वा क्षिप्रगामित्वम् अस्ति मनसः.
तत्र तद् नाम तत्र वयं चिन्तयामः युगपत् भवति, किन्तु तत्र युगपत् न अभवत् किन्तु क्षिप्रगामी इति कृत्वा तत्र
झटिति झटिति मनः कार्यं करोति इति
अस्ति भगिनि. अतः तत्र प्रायशः एतदपि अन्यत् कारणमस्ति, तत्र मनसः अणुरूपस्य कृते भगिनि, यतोहि तत्र मध्यमपरिमाणमस्ति चेत् प्रायशः तत्र एतादृशः वेगः मनसि न भवितुम् अर्हति इति मन्ये. किन्तु तस्मिन् विषये दृष्ट्वा एव वक्तुं शक्नोमि, किन्तु अतः तत्र एकस्मिन् क्षणे
महोदय कोऽपि त्रीणि कार्याणि कर्तुं शक्नोति, कोऽपि न शक्नुमः.
किन्तु भगिनि तत्र स्थूलरीत्या एतादृशचिन्तनं अस्माकं भवति, नाम तत्र मल्टि टास्किङ्ग् इति वदामः, किन्तु यदि सूक्ष्मरीत्या पश्यामः तत्र किं भवति, एकस्मिन् क्षणे एकस्य इन्द्रियस्य एव इति तत्र न्यायशास्त्रस्य चिन्तनं तत्र न्यायशास्त्रे तादृशचिन्तनम् अस्ति. अतः तत्र एकमेव इन्द्रियम् एकस्मिन् क्षणे एकमेव ज्ञानम् अग्रे गत्वा तत्र अस्माकं तत्र ज्ञानस्य तत्र यथा वयं पूर्वं दृष्टवन्तः तत्र घटवत् भूतलम् अपि दण्डी पुरुषः इति अपि तत्र अग्रे गत्वा प्रसिद्धम् उदाहरणं भवति नाम दण्डवान् पुरुषः इति. तत्र विशेषणस्य ज्ञानं विशेष्यस्य ज्ञानम् अपि सम्बन्धस्य ज्ञानं तत्र यथा घटवत् भूतलम् इति अस्ति तादृशं तत्र विषयत्रयम् इति तत्र तादृशज्ञानमपि भवति अपि तत्र विषयद्वयम् एकस्मिन् समये अपि तत्र ज्ञानं भवति इति तत्र समूहस्य ज्ञानं भवति इति एतादृशचिन्तनम् अग्रे भवति किन्तु एतावत् तत्र केवलं प्रत्येकस्मिन् क्षणे एकमेव ज्ञानम् एक प्रत्यक्षज्ञानम् इति कृत्वा एकस्य इन्द्रियं यदस्ति एकेन इन्द्रियेण एव प्राप्तं ज्ञानं तस्य इन्द्रियस्य समीपे मनः अस्ति अग्रिमक्षणे अन्यत्र अस्ति इति एव एतावत् अस्माकं चिन्तनम् अस्ति. हा अस्तु इदानीं समीचीनम् अस्तु. हा
धन्यवादः. धन्यवादः
भगिनी. अस्तु अन्य कोऽपि इदानीं वदेत् तर्हि तत्र
महोदय प्रश्नः अस्ति अत्र प्रत्यात्मनियतत्व इति अस्ति शब्दकोशे नियत इति शब्दस्य अर्थं पश्यामि चेत् बहवः अर्थाः सन्ति इत्युक्ते सेल्फ् गवर्न्ड् एस्टाब्लिश्ड्
नियमितम् इति नियमितत्वेन इति तत्र पूर्वस्मिन् वर्गे उक्तं भगिनि नाम तत्र नियमेन इति नियमेन प्रत्येकमनः एकं मनः तस्य एक शरीरम् इति
असैन्ड्
इति तादृशार्थः अस्ति भगिनि.
अस्तु धन्यवादः.
हा अस्तु इदानीम् अग्रे तत्र हा अन्य कोऽपि इदानीं तत्र तर्हि अन्तिम एतावत् तत्र एतावत् कः अथवा न उक्तवती प्रेमलता भगिनी भवती उक्तवती वा तत्र
मया उक्तम्.
हा अस्तु तत्र राजी भगिनी अस्ति वा राजी भगिनी नास्ति. अस्तु सर्वे उक्तवन्तः इति अस्ति. हा चन्द्रमती भगिनी
नमस्ते.
नमस्कार भगिनि. हा तर्हि इदानीं तत्र लक्षणवाक्ये द्वितीयदलम् अस्ति इन्द्रियम् इति सः लक्षणवाक्ये इन्द्रियम् इति अस्ति तत्र केवलम् इन्द्रियम् इति अस्ति चेत् लक्षणवाक्ये खलु कीदृशः दोषः इन्द्रियं मनः इति केवलम् इन्द्रियं मनः इति लक्षणवाक्यम् आसीत् चेत् अतिव्याप्ति अथवा अव्याप्ति
समान जातिषु भवेत् चेत्
नाम तत्र इन्द्रियं केवलम् एकमेव इन्द्रियम् अस्ति वा
न बहु अन्य षड् पञ्चेन्द्रियाणि सन्ति मनः अपि अत्र अस्ति चेत् षड् इन्द्रियाणि सन्ति.
तर्हि इन्द्रियम् इति वदामश्चेत् तत्र
अन्येषु गच्छति अन्येषु इन्द्रियेषु अपि
गच्छति तर्हि अतिव्याप्तिदोषः
विजातीयेषु
अपि तत्र विजातीयेषु अपि वर्तते इति कृत्वा तर्हि
अतिव्याप्तिदोषः
भवति. हा समीचीनं भगिनि. हा
आचार्य दलद्वयम् अर्थात् सुखादिलुप्तिसाधन अनन्तरम् इन्द्रियः
हा इति लक्षणवाक्ये अस्ति भगिनि तत्र
प्रथमदले मन प्रथमदले मनपर्यन्तमस्ति वा प्रथमदलं
न न न न तत्र दलद्वयम् अपेक्षितं नाम प्रथमदलमपि वक्तव्यमस्ति द्वितीयदलमपि वक्तव्यं
तत् अवगतं मन इति पदं प्रथमदले अस्ति वा द्वितीयपले दले
न न मनम् इति मनः इति प्रथमदले अस्ति वा द्वितीयदले इति प्रश्नः कः इति मया न
अर्थात् मन इन्द्रियम् इति एकं दलं चिनुमः वा केवलम् इन्द्रियम् इति एकं दलं चिनुमः
इति
सुख
पुनः भगिनि तत्र प्रश्नः कः एकमेव दलं
चिनुमः न न दलं न तत्तु अवगतं परन्तु द्वितीयदले मनः अस्ति वा मन इन्द्रियम् अस्ति पदं वा केवलम् इन्द्रियम् इति पदं द्वितीयदले
उपाधिसलब्धिसाधनमिति एकं दलम् इन्द्रियमिति द्वितीयं दलं खलु महोदय
सत्यं भगिनि तत्र
परन्तु तत्र मध्ये मन अस्ति खलु सुखादिरुपलब्धिसाधनं मन अनन्तरम् इन्द्रियं द्वितीयदले वा इति प्रश्नः
मनसः विशेषणं भगिनि साधनम् इन्द्रियं
दलद्वयं नाम मृणालिनी भगिनि तर्हि तत्र प्रथमदलं किम् अस्ति द्वितीयदलं किम् अस्ति इति किञ्चित् वदतु तर्हि
सुखाद्युपलब्धिसाधनं केवलं तत् तावत्
प्रथमदलम् अस्तु द्वितीयदलं
केवलम् इन्द्रियं वा मन न तत् योजनं
मनसः लक्षणं खलु मनसः उक्तं मनसः लक्षणमेव उक्तं खलु तर्हि मनः इति लक्ष्यं लक्ष्यात् प्राक् यदस्ति तदस्ति लक्षणं खलु
अन्यथा तत्र अतिव्याप्ति न भवेत् खलु तत्र
तर्हि द्वितीयदलम् अस्ति इन्द्रियम् अतः तत्र केवलम् इन्द्रियमिति यदि वदामः तत्र अतिव्याप्तिदोषः भवति यतोहि इन्द्रियत्वम् अन्येषु इन्द्रियेषु अपि वर्तते इति कृत्वा अतिव्याप्तिदोषः भवति अतः द्वितीयदलेन पर्याप्तं नास्ति प्रथमदलेन अपि न पर्याप्तं नास्ति इति अस्माभिः तत्र दर्शनीयं भवति तदा एव तत्र दलसार्थक्यम् भवति तदा एव तत्र एतत् लक्षणवाक्यम् इति स्वीकर्तुं शक्नुमः अस्तु अतः तत्र एतत् सर्वम् अग्रिमे वर्गे तत्र दलसार्थक्यस्य विषये चर्चा भवेत् अस्तु एतावत् समीचीनं अस्तु तर्हि समीचीनमस्ति अतः तत्र अद्य करपत्रं सम्यक् रीत्या पठितवन्तः अवगतवन्तः अपि तर्हि तत्र अग्रिमे वर्गे पुनः तत्र विद्याधरी पुस्तके तत्र मनसः निरूपणं यत् यः भागः वर्तते तं भागम् अग्रिमवर्गे पठामः तर्हि अस्तु तर्हि धन्यवादाः नमस्कारः अग्रिमे वर्गे
धन्यवादः
धन्यवादः
धन्यवादः नमस्कारः